इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः भारतमण्डपम् स्थले नागरिकोड्डयने आधारिते एशिया प्रशान्त मन्त्रिस्तरीय सम्मेलने भागं ग्रहीष्यति। सर्वैः सदस्यदेशैः दिल्ली घोषणापत्रमिति अंगीकरणीयमिति प्रधानमन्त्रिणा घोषणा करिष्यते। एतस्मिन् घोषणापत्रे विमाननक्षेत्रसम्बद्धा दूरदर्शिनी संरचना विद्यमानास्ति। ह्यः नागरिकोड्डयनमन्त्री राममोहननायडुः अस्य सम्मेलनस्य उद्घाटनं कृतवान्। अवधेयं वर्तते यत् भारतं विश्वस्य द्रुतगत्या वर्धमानं विमाननविपणिकेन्द्रमस्ति। सम्प्रति च निजक्षेत्रे तृतीयं बृहत्तमं विपणिकेन्द्रम् अस्ति। गत दशवर्षेषु भारतीय विमानयानानां संख्या चतुश्शततो संवर्ध्य अष्टशततः अधिका जाता। विमानस्थानकानि चतुःसप्ततिः संवर्ध्य सप्तपञ्चाशदुत्तरैकशतं यावत् वर्धितानि सन्ति। केन्द्रीय मन्त्रिमण्डलेन आयुष्मान भारत प्रधानमन्त्री जनारोग्य योजनायाः अन्तर्गतं सप्ततिः वर्षात् अधिकम् आयुवर्गाणां सर्वेभ्यः वरिष्ठ नागरिकेभ्यः स्वास्थ्यसौविध्य प्रदानस्य स्वीकृतिः प्रदत्ता। नवदिल्ल्यां मन्त्रिमण्डलस्य उपवेशनानन्तरं केन्द्रीयमन्त्री अश्विनी वैष्णवः इमां सूचनां प्रदत्तवान्। असौ अग्रे कथितवान् यत् वरिष्ठ नागरिकेभ्यः 5 लक्ष रूप्यकाणि यावत् निःशुल्कं चिकित्सकीयोपचारं प्रदास्यति। केन्द्रीयमन्त्रिमण्डलेन द्वयोः वर्षयोः 2000 कोटिरूप्यकाणां परिव्ययेन सह ऋतुसज्जतां वायुमण्डलस्मार्तं च भारतं निर्मातुं मिशन मौसम इत्येतस्मै स्वीकृतिः प्रदत्ता। नवदिल्ल्यां वार्ताहरान् सम्भाषयन् सूचना प्रसारणमन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् पृथ्वी विज्ञान मन्त्रालयद्वारा प्रचाल्यमानं मिशन मौसम इति भारतस्य ऋतुविज्ञान सम्बद्धाः विज्ञानानुसन्धानसेवाः संवर्धयिष्यति, अपि च ऋतुविज्ञान सम्बद्धां स्पष्ट सूचनाम् अपि प्रदास्यति। वाणिज्योद्योग मन्त्री पीयूष गोयलः ह्यः नवदिल्ल्याम् एकस्मिन् कार्यक्रमे भारतीयोद्यमशीलानां कृते अन्ताराष्ट्रिय व्यापारस्य सुगमतां प्रवर्धयितुं ट्रेड कनेक्ट ई प्लेटफॉर्म इत्येतस्य उद्घाटनम् कृतवान्। कार्यक्रमं सम्बोधयन् श्रीगोयलः अवदत् यत् ट्रेड कनेक्ट ई प्लेटफॉर्म इति विविधमन्त्रालयानां संस्थानां संघटनानां च मध्ये सहयोगं वर्धयिष्यति। सः उल्लेखम् अकरोत् यत् एषः मञ्चः भविष्यकालिको वर्तते तथा च विविधसूचनानां दत्तांशानां च सुलभतां वर्धयिष्यति। मन्त्री अवदत् यत् आगामि संस्करणानि हिन्दीभाषायां तथा च अन्यासु आधिकारिक भारतीय भाषास्वपि उपलभ्यन्ते। ह्यः सिलिकॉन कूटनीतेः युगम् अस्ति। अद्य सिलिकॉन कूटनीतेः युगमस्ति। भारतं च सेमीकंडक्टर इत्यस्य बृहत्तमोत्पादनकेन्द्र भवितुं प्रत्येकम् उपायं करिष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। असौ अवदत् यत् उपकरणेषु प्रयुज्यमाणस्य चिप इत्यस्य उत्पादनसंख्या वर्धयितुं सर्वकारः अवधानं यच्छति। ह्यः ग्रेटर नोएडा इत्यत्र सेमिकॉन भारतम् इत्यस्य कार्यक्रमस्य उद्घाटनानन्तरं प्रधानमन्त्री भाषमाणः आसीत्। स्वकीये भाषणे प्रधानमन्त्री देशे विद्युदुपकरणानां सेमीकंडक्टर इत्येतस्य च व्यापारं संवर्धयितुं सर्वकारेण कृताः विविधाः प्रोत्साहनोपक्रमाः समुद्घाटिताः। असौ अवदत् यत् अस्य दशकस्य अन्तिमकालं यावत् देशस्य विद्युदुपकरणानां क्षेत्रं 500 बिलियन डॉलर मूल्यंकं निर्मातुं सर्वकारेण लक्ष्यं निर्धारितम् अस्ति। अपि च क्रीडावार्तायां हॉकी प्रतिस्पर्धायां अद्य चीनदेशस्य हुलुनबुइर नगरे पुरुषाणां एशिया चैम्पियंस ट्रॉफी प्रतियोगितायां भारतं दक्षिण कोरिया दलेन सह अद्य सपाद 1 क्रीडिष्यति। इति वार्ताः।